ॐ सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं विषयः तत्र पूर्वम् आसीत् तत्र किम् आसीत् तत्र लृट् लकारः इति आसीत्, किन्तु तद् तं विषयं गतवर्गे समापितवन्तः। इदानीं तत्र अग्रे न आरम्भं कृतं, किन्तु तत्र अग्रे अद्यतनविषयः नूतनविषयः अस्ति तत्र विधिलिङ्गकारः इति। विधिलिङ्गकारस्य तत्र द्वैविध्यम् अस्ति, एकः अस्ति सम्भावनार्थे, अन्यः अर्थः अस्ति तत्र विध्यर्थे इति। इदानीम् अद्यतनविषयः अस्ति तत्र विधिलिङ्गकारस्य सम्भावना अर्थे इति। तत्र एतत् चिन्तयतु, तत्र माता पितरं पृच्छति तत्र पुत्री कुत्र अस्ति इति। पिता वदति पुत्री सा पाठशाले स्यात् इति। सः सम्यक्तया न जानाति यदि सा पाठशाले अस्ति न वा इति, पाठशाल्याम् अस्ति न वा इति, किन्तु सः पाठशाल्यां स्यात् इत्युक्ते तत्र सम्भावना प्रायशः। प्रायशः इति यदा वक्तुम् इच्छामः तत्र सम्यक्तया न जानीमः, किन्तु एतदेव भवति इति यदि चिन्तनं यत्र चिन्तनं भवति तत्र एषः लकारस्य प्रयोगः एतस्य लकारस्य प्रयोगः भवति। एषः लकारः विधिलिङ्ग् लकारः। अत्र पाठः अस्ति, तत्र पाठः एकनवतितमे पुटे अस्ति, तत्र आरम्भं कुर्मः, तदनन्तरं रूपाणि पश्यामः, तदनन्तरम् अभ्यासमपि कृत्वा तत्र भगवद्गीतायाः श्लोकान् परिशील्य वर्गं समापयामः। अस्तु तर्हि तत्र नरेश महोदय, तत्र भवान् सहदेवः भवति वा, तदनन्तरं तत्र सूर्यकुमारी भगिनी भवति, तत्र नकुलः भवति वा? अस्तु, पाठः अस्ति एकनवतितमे पुटे।
विधिलिङ्गलकार सम्भावनार्थे नकुलसहदेवे सहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः। भोः भ्रातः श्वः युद्धस्य पञ्चमं दिनम्।
आं भ्रातः, अद्यावधि पञ्चलक्षाधिकाः सैनिकाः पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः।
श्वः किं किं भवेत् इति चिन्तयामि, कः युद्धारम्भं कुर्यात्?
तत्तु सेनापतिः निश्चिन्यात्। भवान् केन सह युद्धं कुर्यात्?
ये पुरतः आगच्छेयुः तैः सह कुर्याम्। अस्माकं व्यूहरचना कथं स्यात्?
प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि। आवां नेतृत्वं वहेव।
आम्, आत्मानं परितः अश्वदलं स्थापयेव।
कदाचित् पितामह भीष्मः रणतन्त्रं परिवर्तयेत्। कौरवाः युगपत् सर्वत्र आपतेयुः।
चिन्ता न करणीया, कृष्णः तत्परिहारोपायं चिन्तयेत्।
कृष्णार्जुनौ स्वः अन्यत्र गच्छेताम्। अवभ्यां सह भ्राता भीमः तिष्ठेत्।
तदापि उत्तममेव, भीमं दृष्ट्वा कौरववीराः भीत्या धावेयुः।
युद्धे वयं जयेम, अथवा ते जयेयुः, किं तेन? अस्माभिस्तु स्वधर्मः आचरितः भवति।
आम् तथैव कुर्मः।
हा इति अस्तु। इदानीं तत्र भवेत्, कुर्यात्, निश्चिनुयात्, कुर्यात् इति यत्र अस्ति तत्र सर्वत्र सम्भावनार्थे इति। अग्रे तत्र विधिलिङ्गार्थे अपि तत्र भवति, किन्तु विधिलिङ्ग् विद्यार्थे अपि तत् पश्यामः, किन्तु सः अग्रिमपाठः भवति। तत्र पञ्चदशपाठः तत्र विधिलिङ्गकारः विद्यार्थे इति भवति, किन्तु अद्यतन तत्र सम्भावनार्थे प्रायशः इति। अत्र रूपाणि एकवारं पश्यामः, तत्र रूपाणि, तत्र पट् धातोः रूपाणि तत्र 93 पुटे तत्र दत्तमस्ति। तत्र रघुवीरानन्दस्वामी एकवारं तत्र पठति वा? तत्र पट् धातोः विधिलिङ्गकारस्य रूपाणि।
विधिलिङ्ग् महोदय, महोदय 182 वा महोदय?
न न, 93 पुटे महोदय, 93।
आं महोदय। पठेत्, प्रथमपुरुषः एकवचनं, पठेत्, पठेतां, पठेयुः, पठेः, पठेतं, पठेत, मध्यमपुरुषः, उत्तमपुरुषः अस्ति पठेयं, पठेव, पठेम,
पठेम। धन्यवादः महोदय। हा, अतः तत्र सः पाठं पठेत् इत्युक्ते तत्र कः अर्थः भवति महोदय?
सः
पाठं पठेत्,
पाठं पठेत्, मे हि
स्टडी, तत्र हि मे, तत्र न जानीमः। सः पाठं पठति इति एकं वाक्यमस्ति, अन्यत् वाक्यमस्ति सः पाठं पठेत्। यदि वयं वदामः सः पाठं पठति, वयं जानीमः सः पाठं पठति, इदानीं पठन् अपि अस्ति, किन्तु यदि वयं वदामः तत्र सः पाठं पठेत्, तत्र अस्माकं ज्ञानं पूर्णतया नास्ति, अल्पज्ञानम् अस्ति। अतः तत्र वयं सम्भावना, ऊहां कुर्मः, प्रायशः सः पाठं पठन् अस्ति, अतः सः पाठं पठेत् इति वदामः। सः पाठं पठति तत्र जानीमः सः पाठं पठति, यत्र वयं केवलं पठेत् इति वदामः तत्र न जानीमः। तत्र अद्य सः पाठं पठितवान्, किन्तु श्वः सः पाठं पठिष्यति इति वक्तुं शक्नुमः वा, अथवा सः पाठं पठेत् इति किं भवति? पठिष्यति यत्र वयं जानीमः, सर् प्रतिदिनं सः पठति, श्वः अपि सः पठिष्यति, किन्तु कोऽपि बालकः अस्ति सः एकदिनं पठति, अन्यदिनं न पठति, तत्र किं वदामः? अस्तु, अद्य सः पठितवान्, श्वः सः पठिष्यति न वा इति न जानीमः, अतः श्वः सः किं करोति इति प्रश्ने सति किं वदामः? सः पाठं पठेत्, न जानीमः सः पाठं पठेत्, पश्यामः श्वः यदि भवति तदा जानीमः सः पाठं पठति न वा इति। अतः यत्र संशयः अस्ति, सम्भावना अस्ति, प्रायशः इति वक्तुम् इच्छामः, ऊहां कुर्मः, तत्र किं भवति? पठेत् इति भवति। अतः तत्र पठेत्, पठेतां, पठेयुः, पठेः, पठितं, पठित, पठेयं, पठेव, पठेम इति। अस्तु, इदानीं तत्र किञ्चित् तत्र विधिलिङ्गकारः सुलभः एव, किन्तु तत्र अवगमनार्थमपि तत्र कोऽपि क्लेशः प्रायशः नास्ति, किन्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र किं किम् अस्ति इति। अस्तु, तर्हि तत्र रघुपतिमहोदय आरम्भं करोति वा महोदय?
एकनवति सम्भाषणे। अस्तु, अत्र नकुलस्य हतयोगौ युद्ध श्वेते खलु
श्वेते महोदय श्वेते सम्यक्तया श्वेते
नकुलसहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः अत्र कुरुतः सहदेवः वदति भो प्रातः श्वः युद्धस्य पञ्चमं दिनम् इति तदा नकुलः वदति आं भ्रातः अद्यावधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः अत्र किमपि नास्ति तत् विधिलकारपदानि न सन्ति
किन्तु अद्यावधि इत्युक्ते
अद्यावधि अद्यपर्यन्तम् अद्यपर्यन्तम् अद्यावधि इति
अद्यपर्यन्तम् अत्र सीमा अस्ति सीमायां इङ्कितमस्ति तत्र अद्य इति इङ्कितमस्ति
अद्यावधि
अद्यपर्यन्तं पञ्चलक्षाधिकाः सैनिकाः वीरगतिं वीरगतिम् इत्युक्ते तत्र मरणम् इति
मरणं प्राप्तवन्तः
क्षत्रियाणां तत्र धर्मः तत्र वीरगतिं प्राप्तिः वीरगतेः प्राप्तिः तत्र तेषां धर्मः इति
सहदेवः वदति श्वः किं किं भवेत् इति चिन्तयामि कः युद्धारम्भं कुर्यात् अत्र भवेत् इति तत्र विद्रेन्द्रकारः अस्ति भवेत् भवेतां भवेयुः इति तत्र भवेत् इति
भवेत् विधिलिङ्गार्थे तत्र सम्भावनार्थी अस्ति अतः तत्र किं वक्तुम् इच्छति अहं न जानामि सम्यक्तया न जानामि किं श्वः भविष्यति इति किं भविष्यति न जानामि
कः युद्धारम्भं कुर्यात् इति तदापि अत्रापि कुर्यात् कुर्यातां कुर्युः इति प्रायः युद्धारम्भं
सत्यं कुर्यात् कुर्यातां कुर्युः इति
कुर्युः इति अग्रे नकुलः तत्तु सेनापतिः निश्चुनुयात् निश्चुनुयात् भवान् केन सह युद्धं कुर्यात् इति निश्चुनुयात्
तत्र भवेत् इति स्थाने महोदय यदि तत्र प्रायशः इति तत्र कुत्र
प्रायः प्रायशः
तत्तु सेनापति प्रायशः निश्चिनोति
निश्चिनोति निश्चिनोति
निश्चिनोति तत्र तस्य निश्चयः एव भवति सेनापतेः निश्चयः एव तत्र भवति तत्र युद्धारम्भं कः करोति इति अतः तत्र वयं तु न जानीमः अतः निश्चिनुयात् सः एव निश्चिनुयात्
अत्र निः इति चिनुयात् वा चिनुयात् चिन्दातु चिदातु वा
चिदातु
चिदातु प्रायः चिदातु
सुनुयात् निः
निः इति उपसर्गः प्रायः निश्चिनुयात् अस्तु भवान् केन सह युद्धं कुर्यात् इति सहदेवः ये पुरतः आगच्छेयुः तैः सह कुर्याम् अस्माकं व्यूहरचना कथं स्यात् अत्र येः पुरतः अस्मत्पुरतः आगच्छेयुः तैः सह अहं युद्धं कुर्याम् इति वदति इति सहदेवः वदति तत्र तैः सह युद्धं कुर्यात् तैः इति तत्र तृतीयविभक्ति सहयोगे ये पुरतः ये आगच्छेयुः इति तत्र बहुवचने अस्ति गच्छेत् गच्छेतां गच्छेयुः इति
तावदेव तत्र आगच्छेत्
आगच्छेत् यः मम पुरतः आगच्छेत् आगमिष्यति तेन सह युद्धं करिष्यामि इति अत्र युधिलिङ्गकार्यं भवति ये पुरतः आगच्छेयुः बहुवचने तैः सह युद्धं कुर्याम् इति अस्माकं व्यूहरचना कथं स्यात् इति सः पृच्छति कथं भवेत् इति अस्माकं व्यूहरचना
कथं
स्यात् भवेत् अथवा अस्ति कथं भविष्यति कथम् इति
कथं स्यात् इति कथं भविष्यति इति प्रश्नः
प्रश्नार्थकः स्यात् इति
हा समीचीनं महोदय. अस्तु अग्रे धन्यवादः महोदय. अग्रे तत्र गीताञ्जलिभगिनी अग्रे तत्र अस्मिन्नेव वाक्यं पुनः एकवारं पठित्वा किञ्चित् विवृणोतु भगिनि, तत्र ये पुरतः आगच्छेयुः इति.
आम् महोदय, ये पुरतः आगच्छेयुः तैः सह कुर्याम् अस्माकं व्यूहरचना कथं स्यात्.
हा तत्र स्यात् इति अस्ति, तत्र स्यात् इति विधिलिङ्गकारः धातोः विधिलिङ्गकारः. तत्र स्यात् इत्युक्ते भवेत् इति अर्थः खलु, तत्र स्यात् भवेत् न जानीमः, कथं भवेत् इति न जानीमः, कथं स्यात् इति. तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये? हा व्यूहरचना एव, व्यूहरचना अस्ति इति तत्र लट् लकारे, किन्तु इदानीं विधिलिङ्गकारे व्यूहरचना
स्यात्.
हा कथं भविष्यति यदि व्यूहरचना व्यूहरचनां जानीमः तत्र, अथवा व्यूहरचना विषये किमपि वक्तुम् इच्छामः तत्र व्यूहरचना कथम् अस्ति इति लट् लकारे भवति, किन्तु इदानीं तत्र विधिलिङ्गकारे किं भवति, व्यूहरचना कथं स्यात्. अस्माकं व्यूहरचना श्वः कथं स्यात् इति प्रश्नः अपि तत्र. तस्मात् प्राक् वाक्यं तत्र ये पुरतः आगच्छेयुः, तत्र आगच्छेयुः अपि तत्र
जनाः मम पुरतः आगच्छेयुः.
तत्र ये पुरतः आगतवन्तः स्युः इति अपि तत्र वक्तुं शक्नुमः. स्युः तत्र स्यात् इति पदस्य क्रियापदस्य प्रथमपुरुषः बहुवचनरूपं स्युः, अतः तत्र ये मम पुरतः आगतवन्तः स्युः. तैः सह युद्धं कुर्याम् इति अस्ति. तत्र कर्तृपदं किम् अस्ति तत्र?
निश्चितेन तु न वदामि, किन्तु प्रायः प्रायशः तैः सह एव युद्धं कुर्याम.
तत्र कुर्याम् इति क्रियापदं, तत्र कर्तृपदं किम् अस्ति?
कर्तृपदम् अहं
कुर्याम्. अहं कुर्याम् समीचीनं भगिनि. हा तत्र तैः सह कुर्यां, तत्र अहं तैः सह अहं कुर्याम् इति समीचीनं भगिनि. हा तत्र सः इति उपपदविभक्तिः, अतः तत्र तैः इति अस्ति. हा समीचीनं भगिनि. हा अस्तु अग्रे.
अग्रे नकुलः प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि, आवां नेतृत्वं वहेव. प्रायः नकुलः एव यद्यपि भवेताम् अस्ति तदापि प्रायः इति सः वदति.
सत्यं भगिनि, सत्यं सत्यं तत्र. तत्र प्रायः अपि भवेतां द्वयमपि अस्ति, किन्तु तत्र
प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि इत्युक्ते एकं एका व्यूहरचना प्रायशः न भवेत्.
केवलम् एकः व्यूहः इति न प्रायशः न भवति, किन्तु व्यूहद्वयं व्यूहद्वयम्
एका व्यूहरचना न भवेत् प्रायशः.
किन्तु भगिनि तत्र व्यूहरचना अपि व्यूहः तयोः मध्ये किञ्चित् कश्चन भेदः अस्ति. तत्र व्यूहः अस्ति, व्यूहस्य रचना भिन्ना अस्ति खलु.
किन्तु
अत्र अत्र प्रश्नः केवलं भवतः व्यूहौ व्यूहौ द्वौ भवेताम् इति चिन्तयामि.
न मम प्रश्न महोदय, यदि द्वौ व्यूहौ भवेताम् तदनन्तरं द्वौ द्वे व्यूहरचना रचने अपि भवेत् इति.
सत्यं सत्यं, किन्तु सत्यं तत् सत्यमस्ति भगिनि, किन्तु अस्मिन् वाक्ये विषयः अस्ति केवलं कति व्यूहाः सन्ति इति एव खलु. हा, अतः तत्र अस्मिन् वाक्ये व्यूहः एव विषयः, व्यूहरचना इति विषयः नास्ति.
रचना
नास्ति. हा, तत्र पूर्वस्मिन् वाक्ये व्यूहरचना इति विषयः आसीत. समीचीनं.
अर्थः तु रचना तस्य
व्यूह इत्युक्ते साक्षात् येषु स्थलेषु तत्र सैनिकाः सर्वे तिष्ठन्ति तत्र तस्य आकारः, सेनायाः आकारः, तत्र चक्रव्यूहः वा अथवा तत्र मकरव्यूहः वा चन्द्रव्यूहः वा इति तत्र
मम प्रश्नः महोदय. तदेव तु रचना अस्ति इत्युक्ते
न न रचना इति केवलम् आकारः नास्ति, तत्र व्यूह इत्युक्ते अत्र तु कति व्यूह सन्ति इति. किन्तु व्यूहद्वयम् अस्ति इति यदि जानीमः तदनन्तरम् अन्यः प्रश्नः अस्ति, अस्तु व्यूहद्वयम् अस्ति, प्रथमव्यूहः कीदृशः, सः चक्रव्यूहः वा सः मकरव्यूहः वा इति. अतः तत्र सः भिन्नः प्रश्नः. व्यूहरचना इत्युक्ते व्यूहस्य रचना कीदृशी इति प्रश्नः
इत्युक्ते
न भगिनि, तत्र कति अस्मिन् वाक्ये केवलं तत्र कति व्यूहाः सन्ति तावदेव.
न सत्यं महोदय, अवगतं वाक्ये तु कर्तृपदं किम् अवगतं, किन्तु मम मनसि तु भेदः स्पष्टं नास्ति. इत्युक्ते व्यूहरचना अपि च व्यूह अर्थभेदः किं सः.
तत्र व्यूहरचना इत्युक्ते एतत् चिन्तयतु भगिनि, तत्र चक्रव्यूह इति अपि चिन्तयतु, तत्र एकः एव चक्रव्यूहः अस्ति वा. व्यूहः चक्रव्यूहः अस्ति, किन्तु कुत्र कुत्र सैनिकाः, कुत्र कुत्र महारथयः तिष्ठन्ति, कुत्र कुत्र अधिरथयः तिष्ठन्ति, तत्सर्वं निश्चितं, किन्तु कः कुत्र भवति तत्तु न निश्चितं खलु. तत्र मध्ये दुर्योधनः तिष्ठति वा अथवा द्रोणः तिष्ठति वा अथवा कुत्र द्रोणः तिष्ठति, कुत्र दुर्योधनः तिष्ठति, कुत्र भीष्मः तिष्ठति, तद् रचना भवति.
अस्तु
तत्र हा केवलं चक्रव्यूह इति एकः विषयः, किन्तु चक्रव्यूहे तत्र के के कुत्र कुत्र तिष्ठन्ति इति प्रश्नः व्यूहस्य रचनायाः विषयः इति मन्ये.
अस्तु अस्तु, इत्युक्ते मूलरूपं तु जानीमः, किन्तु व्यूह अस्ति चेत् किन्तु व्यूहरचना अस्ति चेत् अधिक
कार्यस्य विषये अस्ति अत्र.
अत्र
व्यूहरचना कार्यस्य विषये चिन्तय.
हा सत्यं, चिन्तयति. हा एकमस्ति तत्र पुस्तकम् इति वदामः, तत्र कति पुस्तकानि सन्ति, पुस्तकद्वयम् अस्ति तावदेव. इदानीं तत्र कीदृशानि पुस्तकानि इति प्रश्नः तत्तु भिन्नः खलु. इदानीं केवलं संख्या एव, तत्र कति व्यूहाः सन्ति इति. अतः तत्र सः चिन्तयति तत्र द्वौ व्यूहौ भवेताम्
इति नकुलः चिन्तयति.
हा तत्र द्वौ व्यूहौ इति तत्र केषां द्वौ व्यूहौ, पाण्डवानाम् अथवा कौरवानाम् अथवा मिलित्वा व्यूहौ द्वौ भवति इति वा.
पाण्डवानामेव
तत्र पाण्डवानामेव तत्र व्यूहौ द्वौ भवति इति चिन्तनम् अत्र अस्ति. कौरवानां व्यूहरचना इति इदानीं विषयः नास्ति, तत्र कौरवाणां कति व्यूहाः सन्ति इति न जानीमः,
तत्तु विषये एव नास्ति.
हा अत्र केवलं पाण्डवानां तत्र सैन्ये तत्र श्वः कति व्यूहाः भवन्ति इति तत्र व्यूहौ द्वौ भवेताम् इति नकुलः चिन्तयति.
तदनन्तरम् आवां नेत्रत्वं बहिरेव.
हा इत्युक्ते
बहिरेव तु न जानामि महोदय.
हा तत्र बहेव इति विधिलिङ्गलकारः, किन्तु तत्र ऊहां कर्तुं शक्नोति वा तत्र लट् लकारः किं भवति इति?
वहति वा?
हा समीचीनं भगिनि, हा वहति, वहति तत्र भारः अस्ति, भारं वहति. अत्र किं वहति?
नेतृत्वं किम् इति.
नेतृत्वम् इत्युक्ते
नेतृत्वस्य भारः.
नेता, नेता, नेता अस्ति देशस्य नेता, सः सः किं करोति? सः देशायाः नेतृत्वं वहति. तत्र नेता अस्ति, नेता तस्य भावः. नेता इति पदस्य षष्ठी किम् अस्ति? न न, नेता इति आकारान्त न, नेतृ. नेतुः, समीचीनं भगिनि. हा अतः नेतुः भावः अस्ति नेतृत्वम् इति. पुस्तकं पुस्तकत्वं, नेता यः अस्ति तस्य भावः नेतृत्वं, लीडर्शिप्. समीचीनम्. अतः सः आवां नेतृत्वं वहेव इत्युक्ते
आवाम् इत्युक्ते सः देव अपि नकुलः
बहावः इति.
वहेव
इति विधिलिङ्गलकरे तत्र वहति. तत्र उत्तमपुरुषे किं भवति? वहति इति धातुः इति क्रियापदं. वहामि, अतः सत्र नकुलः किं वदति? आवां नेतृत्वं वहावः इति लट्लकारे. वहावः, किन्तु सः निश्चयेन न जानाति तत्र यदि तत् कर्तुं शक्नोति न वा इति. अतः सः किं वदति? आवां नेतृत्वं बहेव. प्रायशः वयं नेतृत्वं बहेव. अतः श्वः तादृशी स्थितिः स्यात् इति. नेता इति पदस्य द्विवचन प्रथमविभक्ति द्विवचनं किम् अस्ति?
नेतरौ वा?
हा, आवां नेतारौ भवेव.
नेतारौ, क्षम्यताम्. आवां नेतारौ
भवेव इति. तत्र इति चिन्तनम्, इति चिन्तनम्. अग्रे
सः देव वदति, आम् आत्मानं परितः अश्वदलं स्थापयेव. अस्तु, सः देव अङ्गीकरोति प्रथमतया आम्, तदनन्तरम् आत्मानं परितः अश्वदलं स्थापयेव.
तत्र आत्मानम् इति अस्ति, तत्र विभक्ति का? तत्र
आत्मानं द्वितीया अस्ति.
किमर्थं?
परितः,
हा उपपदविभक्ति, तत्र परितः प्राक् द्वितीया विभक्ति. आत्मानं परितः इत्युक्ते स्वस्य परितः. तत्र अश्वदलम्,
अश्वदलम् इति तु कर्तृपदम्.
हा, अश्वदलम् इति कर्तृपदं वा? किन्तु तत्र क्रियापदं किम् अस्ति?
आत्मानं परितः अश्वदलं स्थापयेव.
तत्र पूर्वस्मिन् वाक्ये, पूर्वस्मिन् वाक्ये किम् अस्ति? पूर्वस्मिन् पूर्वं वाक्यं पठतु.
आवां नेतृत्वं बहेव.
तत्र बहेव इति तत्र क्रियापदस्य रूप, तत्र क्रियापदं यदस्ति तत्र पुरुषः कः, वचनं किम्?
कर्तृपदं तु आवाम् अस्ति.
पुरुषः कः, उत्तम वा मध्यम वा किं कः?
न, उत्तमपुरुष
द्विवचनं. तत्र बहेव. इदानीं स्थापयेव इति अस्ति, तत्र एतस्य क्रियापदस्य पुरुषः कः?
अवगतं महोदय, इत्युक्ते अति अपि उत्तमपुरुष द्विवचनं
हा आवाम् इति समीचीनं भगिनि,
आवाम् एव, ओ अस्तु
महोदय. अतः आवां स्थापयेव, किं स्थापयेव?
अश्वदलम्, अश्वदलं तु कर्मपदम् अस्ति.
हा अश्वदलम्, अश्वानां दलं, तत्र तत्र सैन्यस्य सेना अथवा सेना अस्ति, तत्र सेनायाः एकः भागः दलं, तत्र अतः तत्र अश्वानां दलम् इति, अश्वदलं तं स्थापय, तत् स्थापयेव आत्मानं परितः. समीचीनं भगिनि, अस्तु अग्रे तत्र रघुवीरनन्दस्वामी अग्रे पठति वा?
महोदय वाक्यं
कदाचित् इति,
नकुलः कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्, कौरवाः युगपत् सर्वत्र आपतेयुः. तत्र भीष्मः पितामहः भीष्मः परिवर्तयेत् महोदय,
किं कस्य परिवर्तनं करोति?
व्यूहस्य,
रणतन्त्रं. हा तत्र कथं, तत्र युद्धं कथं कुर्मः इति, तत्र तस्मिन् विषये सः नूतनचिन्तना तत्र कर्तुं, नूतनां चिन्तनां कर्तुं शक्नोति. अत्र तत्र रणतन्त्रं परिवर्तयितुं शक्नोति, अतः सः परिवर्तयेत्, न जानीमः प्रायशः सः रणतन्त्रस्य परिवर्तनं श्वः करोति, कदाचित्, पुनः तत्र प्रायशः, तत्र कदा सः करोति इति न जानीमः खलु,
न जानीमः.
हा तत्र आरम्भे करोति वा मध्ये करोति वा, तत्र कदाचित् सः करोति, अतः तत्र कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्, तत्र परिवर्तयति इति तत्र लट्लकारे इदानीं किम् अभवत्, तत्र परिवर्तयेत्, अत्र तत्र रणतन्त्रस्य परिवर्तनम् इति अस्ति चेत् तत्र करोति इति स्थाने किं भवति, किं क्रियापदं भवति?
करोति कुत्र अस्ति महोदय?
न, केवलं तत्र वाक्यस्य समानार्थकवाक्यं कर्तुम् इच्छामः, तत्र कदाचित् पितामहः भीष्मः रणतन्त्रस्य परिवर्तनं
करोति
इति लट्लकारे, इदानीं विधिलिङ्गलकारे किं भवति, करोति इति स्थाने
कुर्यात्
एकवचने अस्ति, कुर्युः इति बहुवचने, किन्तु भीष्मः पितामहः एकवचने, अतः कुर्यात्, अतः किं वाक्यं किं भवति, कदाचित्
कदाचित् पितामहः भीष्मः रणतन्त्रस्य परिवर्तनं करोति,
कुर्यात् इति, तावदेव, समीचीनं महोदय. अतः तत्र सः कर्तुं शक्नोति, न जानीमः सम्यक्तया न वक्तुं शक्नुमः, अतः तत्र सः कर्तुं शक्नोति. कौरवाः इदानीं,
कौरवाः युगपत् सर्वत्र आपतेयुः,
तत्र आपतेयुः, आपतति इति लट्लकारे, आपतति इत्युक्ते किं,
फाल्,
हा पतति इति अस्ति, किन्तु आपतति अस्ति चेत् किमस्ति,
कमेण्ट् फाल्.
हा तत्र भवतः आश्रमे तत्र अद्य अनेकाः जनाः, तत्र सहस्रशः जनाः आगच्छन्ति, तत्र भवान् किं वदति तस्मिन् समये?
न महोदय, अहं पलायनं करोमि.
हा तत्र नूतना स्थितिः आपतिता अस्ति इति, अथवा विचित्रा स्थितिः आपतिता, तत्र यदा तत्र ज्ञानं नास्ति, तद् भवति न वा इति, यत्र ज्ञानं नास्ति तत्र आपतति इति, तत्र भयं तद् न कुर्मः, किन्तु तत्र तत् आपतितम् अथवा आपतितः इति वदामः. तत्र कौरवाः युगपत् सर्वत्र आपतेयुः, तत्र आपतेयुः सर्वत्र. युगपत् इति अस्ति, युगपत् इत्युक्ते
वन् टैम्,
हा
तत्र
एककाले एव, तत्र सर्वत्र सर्वासु दिक्षु ते आगच्छन्ति, आक्रमणं कुर्युः ते कौरवाः, न जानीमः. अग्रे महोदय.
सहदेवः चिन्ता न करणीया, नः तत् परिहारोपायं चिन्तयेत्.
हा स तत्र चिन्ता न करणीया इति. तदनन्तरं कृष्णः,
कृष्णः तत् परिहार उपायं, परिहारोपायं चिन्तयेत्.
हा तत्र प्रायशः कृष्ण श्रीकृष्णः चिन्तयेत्. किं चिन्तयेत्?
तत् परिहारोपायं.
हा तत्र एकमेव पदमस्ति, किन्तु तत्र विभजनं कृत्वा वदतु तत्र किम् अस्ति. तत्र पदत्रयं भवति,
परिहरं तत् स्थाने रणतन्त्रस्य,
अपि
रणतन्त्रं, कृष्णः रणतन्त्रस्य
परिहारस्य
उपायम्
उपायं चिन्तयेत्. समीचीनं भवति, धन्यवादः. सः कृष्णः तस्य अथवा तस्य रणतन्त्रस्य परिहारस्य उपायं चिन्तयेत् अथवा चिन्तनं, तस्य चिन्तनं कुर्यात् इति. समीचीनं महोदय, अस्तु. अग्रे नरेश् महोदय. धन्यवादः महोदय.
चिन्ता न करणीया,
तत् कृतम् इदानीं. तत्र कृष्णार्जुनौ इति,
कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम्, आवाभ्यां सः भ्राता भीमः तिष्ठेत्. श्वः नकुलः वदति, श्वः कृष्ण च अर्जुन च अन्यत्र गमिष्यन्ति, गमिष्यतः
इति इति. तत्र चिन्ता प्रायशः, प्रायशः तत्र गमिष्यन्ति, गमिष्यतः इति प्रायशः तत् सा स्थितिः भवति. अतः तत्र गच्छेताम्, अन्यत्र गच्छेताम्. अतः तत्र किं भवति, अतः कः तिष्ठति?
आवाभ्यां सः भ्राता भीमः तिष्ठेत्. भीमः अत्र आवाभ्यां सः अस्ति
भवेत्. तत्र पुनः तत्र सम्यक्तया न जानीमः. तत्र तत्र तिष्ठति इति चिन्तनं, किन्तु तत्र तद्भवति न वा इति न जानीमः. अतः तत्र तिष्ठेत् इति, तावदेव. समीचीनं. अग्रे.
तदपि उत्तममेव.
तदपि तत्र यदि भीमः तत्र तिष्ठेत् तद् सा स्थितिः अपि उत्तमा एव. यतोहि किं
न जानामि, परन्तु तत् अस्ति चेत् उत्तमम् अस्ति.
अग्रिमं वाक्यं वदति किमर्थम् इति.
भीमं दृष्ट्वा कौरववीराः भीत्या धावेयुः. यदा कौरवः भीमं पश्यन्ति, ते प्रायः धावन्ति.
समीचीनं महोदय. ते भीत्या धावेयुः. अतः तत्र यदि भीमः तिष्ठेत् तत्र नकुलसहदेवाभ्यां सह तिष्ठेत् तदा किं भवति, तदा कौरवाः तं भीमं दृष्ट्वा ते भीत्याः धावेयुः. समीचीनं महोदय. अग्रे.
युद्धे वयं जयेम अथवा ते जयेयुः, किं तेन.
युद्धे
युद्धे युद्धमध्ये वयं जीतं प्राप्नुयाम,
तत्र अस्माकं जयः भवति अथवा तेषां जयः भवति इति जानीमः वा न जानीमः,
न जानीमः। अतः किं तेन अस्माभिः
किं तेन इत्युक्ते तत्र
किं तेन तत्
हिन्दी मे उसे क्या इति
आमां किं
तेन किं तेन किं तत्र अस्माकं जयः वा तेषां जयः तत्र तस्य कोऽपि महत्त्वं नास्ति, किमपि महत्त्वं नास्ति, यद् यदपि भवतु चिन्ता मास्तु समानमेव, तस्य महत्त्वम् एव नास्ति। तत्र उदाहरणार्थं तत्र साधुः अस्ति तत्र वने तत्र ध्यानं कुर्वन् अस्ति सः साधुः, तत्र कोऽपि वाणिका आगच्छति साधोः समीपम् आगत्य सः प्रदर्शयति भोः पश्यतु मम समीपे एतावत् धनम् अस्ति इति, तस्मिन् समये साधुः किं वदति
किं तेन
किं तेन इति वदति, तावदेव तत् तस्य मूल्यं किमपि नास्ति मम तत्र अहं किमपि तस्य तत्र तत्र किमपि न पश्यामि, तत्र महत्त्वं न पश्यामि, तत्र अतः किं तेन तेन किम् इति तत्र अतः तत्र युद्धे वयं जयेम अथवा ते जयेयुः किं तेन
अस्माभिस्तु स्वधर्मः आचरितः भवति,
अस्माभिः स्वधर्मः आचरितः भवति, तत्र भवति इति क्रियापदं कर्तृपदं किम् अस्ति
भवति आचरितः
आचरितः अपि तत् प्रथमविभक्तौ अस्ति, अन्यत् पदं प्रथमविभक्तौ अस्ति तत् किं
स्वधर्मः,
स्वधर्मः आचरितः भवति, अस्माभिः तु स्वधर्मः आचरितः भवति, तत्र कर्तृरूपे नास्ति, तत्र कर्तृपदं तत्र कः आचरति तत्र धर्मम् अस्माभिः इति अस्ति, तत्र अस्माभिः इत्युक्ते कः
वयं
स्वधर्मं वयं स्वधर्मम्
आचरणं कुर्यामः
आचरामः अथवा तत्र स्वधर्मस्य आचरणं कुर्मः इति तादृशं समीचीनं महोदय, अतः तत्र किन्तु अस्माभिः तु स्वधर्मः आचरितः भवति, सः एव अस्माकं कार्यं तत्र तदेव अस्माकं कार्यं केवलं धर्मस्य आचरणं स्वधर्मस्य आचरणं, तत्र फलस्य काङ्क्षा मास्तु, अतः तत्र जय अस्माकं जयः वा तेषां जयः वा इति तत्तेन किमपि नास्ति, केवलम् अस्माकं धर्मं स्वधर्मस्य पालनम् आचरणं तद् तदेव मुख्यं तद् कुर्मः इति सत्यं भगिनि, सत्यं भगिनि, स्वधर्मः कीदृशः भवति, स्वधर्मः आचरितः भवति, कैः आचरितः अस्माभिः आचरितः इति, तत्र अहं पुस्तकं पठामि मया पठितं पुस्तकम् अथवा तत्र रामः वृक्षं पश्यति रामेण दृष्टः वृक्षः इति, अत्र अस्माभिः आचरितः स्वधर्मः भवति इति समीचीनं भगिनि, तत्र विशेषभावः अस्ति एव समीचीनं अस्तु, इदानीं तत्र प्रथमतया तत्र अवधेयं पठित्वा तदनन्तरं तत्र रूपाणि किञ्चित् परिशीलयामः, तत्र सूर्यकुमारी भगिनी तत्र अग्रिमे पुटे तत्र अवधेयम् अस्ति, तत् पठति वा भगिनि?
उपरि लिखेते लिखितेषु वाक्येषु सम्भावना अस्ति, कदाचित् प्रायः अथवा इत्यादि पदानि सम्भावनां प्रदर्शयन्ति. सम्भावना ऊह इत्यर्थे विधिर्लकारस्य प्रयोगः क्रियते. उपरितनानि स्थूलाक्षरैः मुद्रितानि सर्वाणि विधिलिन् लकारस्य रूपाणि.
तत्र किञ्चित् वदति वा, विधिलिङ् लकारः इत्युक्ते कः?
विधिलिङ् लकार
तत्र उपरि लिखितेषु वाक्येषु सम्भावना अस्ति इत्युक्ते किम्?
नकुलसहदेवस्य.
हा हा, समीचीनम्. अत्र तत्र तेषु वाक्येषु, उपरि लिखितेषु वाक्येषु, तेषु वाक्येषु का अस्ति? सम्भावना अस्ति इत्युक्ते किं?
भावना एव
तत् भवितुम् अर्हति, किन्तु न जानीमः तत् भवति न वा, तदेव भवति न वा इति न जानीमः. यत्र तद्भवति न वा इति यत्र तादृशः प्रश्नः अस्ति तत्र सम्भावना, तत्र एषा भवेत् इति यदा चिन्तनम्, एषा सम्भावना इति. अत्र कदाचित् तत्र कानि पदानि प्रदर्शयन्ति सम्भावनां प्रदर्शयन्ति? कानि पदानि प्रदर्शयन्ति सम्भावनां प्रदर्शयन्ति?
भवेत्,
न न, क्रियापदं नास्ति तत्र. सम्भावना इति अर्थे तत्र अस्मिन् वाक्ये एव, तत्र अस्मिन् अवधेयं मध्ये तत्र अग्रिमवाक्ये किम् अस्ति? कदाचित् प्रायः,
कदाचित् प्रायः
अथवा, अथवा इत्युक्ते तद्भवति न वा इत्युक्ते अथवा
भवति
न वा इत्यादि 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 पदानि सम्भावनां प्रदर्शयन्ति इत्युक्ते तत्र सम्भावना इत्युक्ते किम् इत्युक्ते यस्मिन् वाक्ये ऊहा अस्ति, यस्मिन् वाक्ये तत्र कदाचित् प्रायः अथवा अथवा वा इति यत्र भवितुम् अर्हति तत्र तत्र वयं साक्षात् कदाचित् अथवा प्रायः अथवा न वदामः, किन्तु क्रियापदेन तादृश अर्थः स्थापितः भवति तत्र. अतः तत्र अथवा प्रायः कदाचित् इति अर्थः क्रियापदेन स्थापितः भवति चेत् तत्र सम्भावना इति तत्र तादृशलकार यः लकार तादृशं कार्यं करोति सः अस्ति विधिलिङ् लकारः. अत्र उपरितनानि स्थूलाक्षरैः मुद्रितानि सर्वाणि विधिलिङ् लकारस्य रूपाणि. तत्र भवेतां वहेव निश्चिनुयात् सर्वं तत्र विधिलिङ् लकारस्य अपि तत्र वयं जानीमः. अस्तु, धन्यवादः भगिनी. लक्ष्मी भगिनी इदानीम् अग्रे पुनः तत्र अग्रिमपुटे तत्र पट् धातोः विधिलिङ् लकारस्य रूपाणि एकवारं पठति वा भगिनि?
पट् धातोः कुत्र अस्ति?
अग्रिमपुटे
ओ, अग्रिमे
93 पुटे.
पठेत् पट् धातुः प्रथमपुरुषः, रूपाणि पठेत् पठेतां पठेयुः. मध्यमपुरुषरूपाणि पठेः पठेतं पठेत. उत्तमपुरुषरूपाणि पठेयं पठेव पठेम.
इदानीं तत्र तत्र इदानीं तत्र लिखति इति तत्र किं भवति?
लिखति, लिखेत् लिखेत् लिखेतं लिखेयुः लिखेयं लिखेः लिखेतं लिखेत लिखेयं लिखेव लिखेम
लिखेम. समीचीनं भगिनि. अस्तु, समीचीनं. अस्तु अग्रे रघुवीरनन्दस्वामी तत्र नयति इति विचिलिङ्गकारः
नयेत् नयेतां नयेयुः नये नयेः नयेतं नयेत नयेयं नयेय नयेव नयेम
नयेम समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनी तत्र गच्छति
गच्छति गच्छेत् गच्छेतां गच्छेयुः गच्छेः गच्छेतं गच्छेता गच्छेयं गच्छेव गच्छेव
इदानीं तत्र कोऽपि स्मरति वा तत्र लोट् लकारस्य रूपं कीदृशं भवति तत्र उत्तमपुरुषे
गच्छतु गच्छतु
पठतु गच्छतु गच्छतां गच्छन्तु गच्छ गच्छतां गच्छद गच्छानि गच्छाव गच्छाम
तत्र तत्र गच्छ इदानीं तत्र पठ किमस्ति पठानि पठाव पठाम इति
मध्यमपुरुषे स गच्छ
पठ पठ तत्र पठ तत्र पठानि पठाव पठाम इति अस्ति उत्तमपुरुषे तत्र बकारः अस्ति मकारः अस्ति किन्तु अत्र किमस्ति पठे इति एकारः अस्ति तत्र तु लोट्लकारे पठाव इति अस्ति आकारः अस्ति अतः तत्र किञ्चित् सामीप्यम् अस्ति किन्तु सामान्यं नास्ति सामान्यं तत्र नास्ति समीचीनम् अस्तु अग्रे तिष्ठति तत्र नरेश महोदय तिष्ठति
आं महोदय तिष्ठेत् तिष्ठेतां तिष्ठेयुः तिष्ठेः तिष्ठेतं तिष्ठेत तिष्ठेयं तिष्ठेव तिष्ठेम
समीचीनं धन्यवादः महोदय अस्तु अग्रे रघुवीरनन्दस्वामी इदानीं तत्र पृच्छति इति ओ भवान् कृतवान् खलु क्षम्यतां रघुपति महोदय पृच्छति इति
हा महोदय पृच्छति पृच्छेत् एकवारं पृच्छ तत्र पृच्छेत् एव पृच्छेत् पृच्छेतां पृच्छेयुः पृच्छेः पृच्छेतं पृच्छेत पृच्छेयं पृच्छेव पृच्छेम
समीचीनं महोदय अस्तु सूर्यकुमारी भगिनी इदानीं तत्र खादति इति
खादति खादेत् खादेतां खादेयुः खादेः खादेतं खादेत खादेयं खादेव खादेम
इति समीचीनम् अस्तु सर्वे उक्तवन्तः इति मन्ये अस्तु इदानीं तत्र किं कुर्मः अग्रे तत्र अन्यः अभ्यासः इदानीं तत्र अहम् एकमेकं क्रियापदं ददामि तत्र तस्य क्रियापदस्य तत्र विधिलिङ्गलकारम् उपयुज्य एकं वारम् एकं वाक्यं रचयन्तु अस्तु तत्र लक्ष्मीभगिनी तत्र पश्यति इति भवत्याः क्रियापदम् इदानीं सूर्यकुमारी भगिनी इच्छति इति रघुपतिमहोदय वदति इति रघुवीरनन्दस्वामी तत्र पतति इति नरेशमहोदय तत्र पिबति इति अपि गीताञ्जलिभगिनी तत्र हसति इति अतः तत्र क्रियापदस्य विधिलिङ्गकारम् उपयुज्य कोऽपि पुरुषः किमपि वचनं किन्तु तत्र विधिलिङ्गकारस्य रूपम् उपयुज्य एकं वाक्यं सरलं वाक्यमपि समीचीनमेव अस्तु इदानीं लक्ष्मी भगिनी
वयं श्वः चलचित्रं पश्येयुः
वयम् इति अस्ति चेत्
पश्येम
पश्येम समीचीनं भगिनि वयं श्वः चलनचित्रं
पश्येम
समीचीनं भगिनि अस्तु धन्यवादः सूर्यकुमारी भगिनि
मम पुत्री श्वः सहायम् इच्छेयुः इच्छेत्
इच्छेत् हा मम पुत्री इच्छेत् समीचीनं भगिनि हा मम बान्धवाः अस्ति चेत् किं भवति मम बान्धवाः साहाय्यं बान्धवाः साहाय्यम् इच्छेयुः समीचीनं भगिनि हा मम पुत्री साहाय्यम् इच्छेत् मम बान्धवाः साहाय्यम् इच्छेयुः समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय
वयं सर्वे विधिलिङ्गकारस्य वाक्यानि वदेम
समीचीनम् समीचीनम् अस्तु रघुवीरेन्द्रस्वामी
उपनिषद् धर्मात् मा पतेम
उपनिषद् धर्मात् मा पतेम अस्तु समीचीनं महोदय अस्तु हा धन्यवादः अस्तु नरेश महोदय अग्रे
पेब् श्वः मेलनं मध्ये मम मित्राणि पिबेयुः
हा मेलनं मध्ये मम मित्राणि पिबेयुः समीचीनम् अस्तु गीताञ्जलि भगिनी अग्रे
बालस्य क्रीडनं दृष्ट्वा वयं सर्वे असेम
हा समीचीनं बालस्य क्रीडनं दृष्ट्वा वयं सर्वे हसेम इति समीचीनं भगिनि अस्तु हा अस्तु तर्हि तत्र अतः तत्र साधारणरूपम् इदानीं स्थापितम् अस्ति तत्र अथवा सामान्यरूपं तत्र विधिलिङ्गकारस्य किन्तु तत्र विशेषणरूपाणि अपि सन्ति इति जानीमः यतोहि तत्र धातूनां तत्र गणविभागः अस्ति इति जानीमः तत्र दशगणाः सन्ति इति जानीमः अतः तत्र एकमेव रूपम् इति नास्ति एतत्तु एषः विषयः तु पूर्वम् अस्माभिः दृष्टः एव अतः तत्र अग्रिमे पुटे तत्र चतुर्नवतितमे पुटे तत्र विशेषरूपाणि दत्तानि सन्ति तदपि एकवारं परिशीलयामः तत्र लक्ष्मी भगिनी पठति वा तत्र अग्रिमं तत्र गृहधातोः रूपाणि
गृह्णीयात् गृहधातुः गृह्णीयात् गृह्णीयातां गृह्णीयुः गृह्णीयाः गृह्णीयातां यातं गृह्णीयात गृह्णीयां गृह्णीयाव गृह्णीयाव याम
इति समीचीनं भगिनि इदानीं तत्र बध्नाति इति अस्ति तत्र एवमेव इति दत्तमस्ति इदानीं बध्नाति इति रूपं कीदृशं भवति
बध्नीयात् बध्नीयातां बध्नीयुः बध्नीयाः बध्नीयातं बध्नीयात बध्नीयां बध्नीयाव बध्नीयाम
इति समीचीनं भगिनि हा अस्तु अग्रे सूर्यकुमारी भगिनि तत्र जानाति इति
जानाति जानीयात् जानीयातां जानीयुः जानीयाः जानीयातं जानीयात जानीयां जानीयाव जानीयाम
जानीयाम तत्र विधिलिङ्गकारस्य विषये सर्वं श्वः जानीयाम इति एव वक्तुं शक्नुमः खलु तत्र
सर्वदा भविष्यत्काले एव भवति सम्भावना
हा हा तत्र यदि भवति न वा न जानीमः अतः अस्तु अग्रे रघुपतिमहोदय तत्र क्रीणाति इति
क्रीणाति क्रीडति क्रीणीयात् क्रीणीयातां क्रीणीयुः क्रीणीयाः क्रीणीयातं क्रीणीयात क्रीणीयां क्रीणीयाव क्रीणीयाम
इति समीचीनं महोदय अस्तु अग्रे रघुवीरानन्दस्वामी तत्र प्रीणाति इति
गृह्णाति महोदय
गृहधातोः रूपाणि दृष्ट्वा तत्र प्रीणाति इति. इदानीं
पुनः महोदय, गृह्धातु दृष्ट्वा
दृष्ट्वा तत्र 94 पेज् मध्ये गृह्धातोः कोष्टकम् अस्ति खलु महोदय, तस्य अधोभागे तत्र एवमेव बध्नाति, जानाति, क्रीणाति, प्रीणाति इति अस्ति, अतः अश्नाति इति, अतः तत्र प्रीणाति इति धातु तत्र क्रियापदं स्वीकृत्य तत्र विधिलिङ्गकारस्य रूपाणि वदति वा, प्रीणाति इति.
तस्य अर्थं किं महोदय?
प्रीणाति इति, हा तत्र प्रीणाति इत्युक्ते महोदय तत्र सेटिस्फाई इति,
ओ
समाधानं इति तत्र
प्रीणयाम वासुदेवम् इति एकं स्तोत्रमस्ति. प्रीणयाम वासुदेवम्
दातु वा
पृ दातुः तत्र ऋकारः
प्रीतिः इति तदेव खलु,
तदेव सत्यं भगिनि, सत्यं महोदय, सत्यं महोदय.
प्रीणीयात् प्रीणीयातां प्रीणीयुः प्रीणीयाः, ओ एतत् विशेषधातुरूपा, प्रीणीयाः प्रीणीयातां
प्रीणीयातं
प्रीणीयातं प्रीणीयात प्रीणीयां प्रीणीयाव प्रीणीयाम.
समीचीनं महोदय, धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनि, तत्र अश्नाति इति अस्ति भगिनि,
अश्नीयाताम् अश्नीयुः अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयाम अश्नीयाम् अश्नीयाव अश्नीयाम.
हा अश्नीयात् इत्युक्ते तत्र अश्नाति इत्युक्ते खादति इति तावदेव.
हा
अश्नाति इत्युक्ते खादति इति
परस्मैपदीरूपाणि नाम
महोदय. हा अत्र सर्वं परस्मैपदीरूपमेव अस्ति भगिनि. अग्रे तत्र आत्मनेपदी धातूनामपि पश्यामः. अपि तत्र इदानीम् एतावत् तत्र केवलं कर्तृ अर्थे तत्र कर्तृरूपाणि एव दृष्टवन्तः विधिलिङ्गकारस्य. अग्रे तत्र कर्मणि रूपमपि पश्यामः. समीचीनं भगिनि. अस्तु अग्रे तत्र नरेश महोदय, इदानीं तत्र अग्रे शक् धातुः अस्ति, तद् तस्य रूपाणि एकवारं वदति वा, पठति वा.
षट् धातु शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम.
हा इदानीं तत्र चिनोति, एवमेव चिनोति, तत्र पूर्वम् आसीत् खलु तत्र चिनुयात् इति,
चिनुयात् चिनुयातां चिनुयुः चिनुयाः चिनुयातं चिनुयात चिनुयां चिनुयाव चिनुयाम.
हा इति समीचीनं महोदय. अस्तु लक्ष्मी भगिनी अग्रे, इदानीं तत्र आप्नोति इति.
अस्तु महोदय. आप्नुयात् आप्नुयाताम् आप्नुयुः आप्नुयाः आप्नुयातम् आप्नुयात आप्नुयाम् आप्नुयाव आप्नुयाम
इति. समीचीनं भगिनि. हा अस्तु अग्रे सूर्यकुमारी भगिनि, तत्र शृणोति इति.
शृणुयात् शृणुयातां शृणुयुः शृणुयाः शृणुयातां शृणुयात शृणुयां शृणुयाव शृणुयाम
इति. समीचीनं भगिनि. अस्तु अग्रे गीताञ्जलि भगिनि, तत्र तनोति इति.
तनोति तनुयात् वा महोदय तनुयात्
सत्यं भगिनि सत्यं तदेव अस्ति
तनुयातां तनुयुः तनुयाः तनुयातं तनुयात तनुयां तनुयाव तनुयाम
इति समीचीनम् अस्तु इदानीं रघुवीरेन्द्रस्वामी अग्रे तत्र नूतन अस्ति तत्र कृ धातुः तत्र करोति इति धातुः तत्र रूपाणि एकवारं पठति महोदय
कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यातम् कुर्यात् कुर्याम् कुर्याव कुर्याम
हा इति समीचीनं महोदय अस्तु अग्रे तत्र अग्रे धा धातोः रूपाणि अपि एकवारं पठतु महोदय
आं महोदय दधातु दत्यात् दत्यातां दत्युः दद्याः दद्यातं दद्यात् दद्या दद्यां दद्याव दद्याम
समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे इदानीं रघुपतिमहोदय इदानीं तत्र रूपाणि दृष्टवन्तः तत्र सामान्यरूपाणि दृष्टवन्तः अपि विशेषरूपाणि अपि दृष्टवन्तः तत्र दश गणाः सन्ति इति कृत्वा तत्र रूपाणि समानम् इति तत्र समानानि इति तु न वक्तुं शक्नुमः इदानीं तत्र पूर्वं तत्र गत्वा तत्र भगवद्गीतायाः श्लोकान् श्लोकाः सन्ति तमपि पठामः महोदय
एतान् श्लोकान् पठत एतेषु प्रयुक्तानि विधिलिङ्गरूप विधिलिङ्गलकाराणि परिशीलयत निहत्यदासराष्ट्रान् नःका प्रीतिस्यार्जनार्दन पापमेवाशयेदस्मान् हत्ये हत्वैतानाततायिनः निहत्य धातराष्ट्रान् नः का प्रीतिः स्यात् इति अस्ति
का
प्रीतिः भविष्यति स्यात् इति स्यात्
स्यात् इति तत्र विधिलिङ्गस्य
स्यात् स्युः
इति स्यात् योगः जनार्दन
स्यात् जनार्दन स्यात् जनार्दन
इति
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः एतत् आततायिन् आततायिनः इति षष्टि एत यत् आततायिनम् इति इत्युक्ते टेररिस्ट् आततायिनः हत्वा पापम् एव आश्रयेत् इति आश्रयेत् इति अस्ति अस्मान् आश्रयेत् इति तत्रापि विधिलिङ्गकारः अस्ति
आश्रयेत् खलु समीचीनं महोदय तत्र आश्रयेत् तत्र आश्रयेत् इति क्रियापदं तत्र अस्तु तत्र प्रथमवाक्यं प्रथमभागं पठामः तत्र स्यात् जनार्दनः
तत्र
स्यात् जनार्दनः
का प्रीतिः स्यात् का प्रीतिः स्यात् किं कृत्वा दातराष्ट्रान् निहत्य दातराष्ट्रान् कौरवान् निहत्य अस्माकं नः इति अहं चिन्तयामि नः इति अस्माकम् इति नः इति
अस्माकं
का प्रीतिः का सन्तोष कः सन्तोषः भविष्यति
इति समीचीनं तत्र जनार्दन इति सम्बोधनं किन्तु तत्र अन्वयरूपेण तत्र तत्र वदामश्चेत् तत्र किं भवति महोदय तत्र
हे जनार्दन एतान् धातराष्ट्रान् निहत्य का प्रीतिः स्यात् इति
अस्माकं का प्रीतिः
अस्माकं का प्रीतिः अपि च अस्माकं तत्र अस्मान् पापम् एव आश्रयेत् एतान् सारि आततायिनः हत्वा एतान् आततायिनः हत्वा आततायिनः इति अत्र बहुवचनस्ति एतान् आततायिनः हत्वा षष्टिः नास्ति एततायिनः हत्वा पापम् एव अस्मान् पापमेव आश्रयेत् इति
अस्मान् पापमेव आसीत्। समीचीनमेव अस्ति महोदय, तत्र किन्तु तत्र अवगमनं सम्यक् भवतु इति तत्र पुनः अन्य कोऽपि एतं श्लोकमेव पठित्वा किञ्चित् विवृणोतु तत्र। लक्ष्मी भगिनी, तत्र एतमेव श्लोकं समीचीनतया भवता रघुपतिमहोदयेन, किन्तु भवती अपि तत्र एकवारं वदतु भगिनी अस्मिन्
श्लोके। तदेव श्लोकं वा?
तदेव श्लोकम्
अस्मिन् श्लोकं। निहत्य धार्तराष्ट्रान् नः निहत् अर्थं
एकवारं पठित्वा एकवारं पठित्वा
निहत्य धार्तराष्ट्रान्नः का प्रीति एकवारं पठ निहत्यदार्तराष्ट्रान्नः का प्रीति स्वजन स्या जनार्दनां पापमेवाश्रयेदस्मान् हत्येदान तदायिनः। निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दनां।
तत्र स्यात् इति विधिलिङ्गकारः, स्यात् इति विधिलिङ्गकारः क्रियापदं, तत्र कर्तृपदं किम् अस्ति? प्रीतिः।
का प्रीतिः?
का प्रीतिः स्यात् इति, का प्रीतिः स्यात् इदानीं तत्र कर्तृपदं क्रियापदम्। इदानीं तत्र किं कृत्वा अथवा
निहत्य
इति मारयित्वा, तत्र धातृराष्ट्रान् इत्युक्ते कान्? अन्यत् पदं धातृराष्ट्रान् इति
कौरवान्
धृतराष्ट्रस्य पुत्रान्
पुत्रान्
कौरवान्
निहत्य का प्रीतिः
नः
अस्माकं का
नः इत्युक्ते अस्माकं का प्रीतिः भवेत्
जनार्दनं।
इदानीं द्वितीयभागः
पापमेवाश्रयेत् अस्मान् हत्वा एतान् अततायिनः, एतान् अततायिनः हत्वान् पापमेव
हत्वा
अस्मान् पापम् एव आश्रयेत्।
इदानीं तत्र आततायिनः इदानीं तत्र आततायिनः एतान् आततायिनः हत्वा एतान् आततायिनः इति तत्र अन्तिमपदस्य रूपं भवति खलु, हत्वैतान् आततायिनः इति तत्र एतान् आततायिनः हत्वा, तत्र आततायिनः इति तत्र इदानीं तत्र हत्वा इति अस्ति, अतः तत्र आततायिनः इति कर्मपदम् अतः द्वितीयविभक्तिरूपम्। यतोहि तत्र आततायिनः तत्र प्रथमाविभक्तिः अपि भवितुमर्हति, किन्तु बहुवचनम् इति तत्र। इदानीं तत्र अस्मान् इति अस्ति, तदनन्तरं तस्मात् प्राक् किम् अस्ति? पापम् एव आश्रयेत् अस्मान् अस्मान् इति, अतः तत्र किम् अस्ति? तत्र आश्रयेत् इति क्रियापदं, पुनः तत्र विधिलिङ्गकारः आश्रयेत्। कर्तृपदं किम् अस्ति? कर्तृपदं किम् अस्ति?
अस्मान्
अस्मान् तु प्रथमविभक्तिः नास्ति खलु, अस्मान्
कर्म आश्रयेत् अहं
न आश्रयेत् तत्र पूर्वं पापम् आश्रयेत् पापम् अस्मासु आश्रयं स्वीकरोति इत्युक्ते अस्माकं पापः भवति इति अर्थे तत्र पापम् अस्मान् आश्रयेत् पापम् एव अस्मान् एव आश्रयेत् पापम् अस्मान् एव आश्रयेत् इत्युक्ते अस्मासु भवेत् पापम् अतः तत्र अस्माकं पापमेव भवति, अतः तत्र पापम् अस्मान् एव आश्रयेत्. यदि वयं किं कुर्मः, यदि तत्र एतान् आततायिनः हत्वा अतः तत्र एतान् आततायिनः हत्वा पापम् अस्मान् एव आश्रयेत् इति भवति. अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु, अग्रे रघुवीरानन्दस्वामी, द्वितीयः श्लोकः.
आं महोदय. तस्मान्नार्हा वयं हन्तुं धातराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव. तस्मान् न अर्हा वयं हन्तुं धातराष्ट्रान् स्वबान्धवान् जनं कथं हत्वा सुखिनः श्याम. तदेव एकमेव पदम् अस्ति
महोदय.
हे माधव,
हे माधव, सुखिनः श्याम. तत्र श्याम इत्युक्ते कर्तृपदं किं भवति तत्र?
अस्ति
सः स्यात्, किन्तु श्याम अस्ति चेत् तत्र किं भवति कर्तृपदम्?
कर्ता तु वयम् एव खलु
महोदय. हा, वयं वयं स्याम, समीचीनं महोदय. वयं वयं स्याम, तत्र वयं सुखिनः कथं स्याम माधव. इदानीं तस्मात्
प्राक्तिम
स्वजनं हत्वा, स्वजनं हत्वा हि वयं कथं,
वयं स्वबान्धवान् धार्तराष्ट्रान् नः हन्तुं. स्वजनं हत्वा महोदय.
हा, अस्तु अस्तु, वदतु महोदय. हा, तत्र हन्तुं धार्तराष्ट्रान्
स्वजनं हत्वा कथं सुखिनः स्याम
स्याम. समीचीनं महोदय. हा, तत्र स्वजनं स्वबान्धवान् हा इति स्वजनं हत्वा वयं कथं सुखिनः स्याम माधव. समीचीनं महोदय. इदानीं तत्र प्रथमभागः तत्र तस्मिन् तत्र धातृराष्ट्रपङ्क्त्यां
महोदय वयं स्वबान्धवान् धातृराष्ट्रान् वयं हन्तुं न अर्हा, हन्तुं न अर्हा.
हा, तत्र अर्हाः इत्युक्ते न तत्र हन्तुम् अस्माकं तत्र अर्हता नास्ति, अतः वयं न अर्हाः. तत्र विसर्गः अस्ति किन्तु तद् तस्य लोपः अस्ति अत्र. न अर्हाः वयं हन्तुं, कान् हन्तुं? धार्तृराष्ट्रान् स्वबान्धवान् हन्तुम् इति. किन्तु प्रथम तत्र शब्दः तत्र अस्ति तस्मात् इति. तस्मात् इत्युक्ते कस्मात्? किमर्थं तत्र वयं न
आततायिनात् वा?
हा, समीचीनं महोदय. हा, तत्र पापम् अस्मान् एव आश्रयेत् इति कृत्वा वयं हन्तुं न अर्हाः इति. समीचीनं महोदय. हा, तत्र तस्मात् इत्युक्ते तत्र पूर्वस्मिन् श्लोके अन्वयः अस्ति इति तावदेव. समीचीनं महोदय. हा, अतः तस्मान् न अर्हाः वयं हन्तुं, कान् हन्तुं? धार्तराष्ट्रान् हन्तुं, स्वबान्धवान् हन्तुं. समीचीनं महोदय, धन्यवादः. इदानीं तत्र सहैव श्लोकः तत्र सूर्यकुमारी भगिनी एकवारं वदति वा?
द्वितीयसूत्रं महोदय.
द्वितीयश्लोकः एव.
तृतीय
द्वितीय द्वितीयं यद् तत्र रघुनाथस्वामी उक्तवान्
प्रतीकार.
द्वितीय द्वितीय द्वितीयश्लोकः.
ओ, द्वितीय. तस्मात्
तस्मान्नार्ह वयं हन्तुं,
तस्मात् न अर्हः
अर्हाः
अर्हाः वयं हन्तुं दातराष्ट्रं
स्वबन्धातराष्ट्रान्
स्वबान्धवान् दातराष्ट्रान् हन्तुं
वयं
न अर्हाः
तस्मात्
पापमेव आश्रयेत् चेत्
हा यदि पापम् अस्मान् एव आश्रयेत् तर्हि वयं किं कर्तुं न शक्नुमः वयं कान् कान् तत्र धार्तराष्ट्रान् कौरवान् कान् तत्र स्वबान्धवाः सन्ति अतः स्वबान्धवान् धार्तराष्ट्रान् वयं न हन्तुम् अर्हाः नाम न तत्र कर्तुम् अर्हता नास्ति अस्माकं तत् कर्तुं न शक्नुमः इदानीं तत्र स्वजनं हि
कथं हत्वा सुखिनः श्याम माधव हे माधव स्वजनं हत्वा कथं सुखिनः श्याम
तत्र कर्तृपदं किं अपि स्थापयतु
वयं श्याम
हे माधव तत्र वयं स्वजनं हत्वा कथं हि सुखिनः श्याम माधव माधव समीचीनं भगिनि हा समीचीनं धन्यवादः अस्तु अग्रे तत्र नरेशमहोदय तृतीयः श्लोकः
आं महोदय यदि मामप्रतीकारमशस्त्रं शस्त्रपानयः धातराष्ट्ररणे हन्युस्तन्मे क्षेमतरं भवेत्
तत्र तत्र किमस्ति तत्र विधिलिङ्गकारस्य पदमस्ति वा तत्र
विधिलिङ्गकार अस्ति भवेत्
भवेत् अपि
यदि मां प्रतिकार शस्त्रं शस्त्रपानयः धातराष्ट्ररणे हन्युस्तन्मे क्षेमतरं भवेत्
हा तत्र प्रायश महोदय तत्र हन्युस्तन्मे तत्र हन्युः तत् मे इति अतः तत्र तत् मे तन्मे तस्मात् प्राक् तत्र हन्युः इति
हन्युः प्रथमपुरुष बहुवचनं
हा बहुवचनं सत्यं महोदय हा हन्युः तत्र पठेयुः कुर्युः दद्युः शक्नुयुः गृह्णीयुः इति तत्र हन्युः रणे हन्युः तत् मे क्षेमतरं भवेत् तत्र यदि
धातुकः महोदय हन्युः
हन्युः हन् धातुः
हन्ति हन्ति
क्षेमतरं भवेत् तत्र अस्तु इदानीं तत्र गीताञ्जलि भगिनी तस्मिन् एतस्य श्लोकं स्वीकृत्य पुनः किञ्चित् विवृणति वा भगिनि
आं महोदय यदि मामप्रतीकारम् अशस्त्रं शस्त्रपाणयः राष्ट्रारणे हन्युं तन्मे क्षेमतरं हन्युः तन्मे क्षेमतरं भवेत् यदि तु अव्ययपदं यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः मां तु द्वितीय एकवचन
यदि माम् अप्रतीकारम्
अप्रतीकारम्
अशस्त्रम्
अशस्त्रं शस्त्रपाणयः
इत्युक्ते तत्र अशस्त्रम् अशस्त्रम्
अशस्त्रं शस्त्रपाणयः इत्युक्ते मां कीदृशं कीदृशम्
इदानीं तत्र माम् अप्रतिकारम् अशस्त्रं तत्र माम् इति अस्ति कीदृशमाम् इत्युक्ते
कीदृशमाम् अप्रतिकारम् अपि च अशस्त्रं माम्
हा तत्र द्वितीयविभक्ति एकवचनम् एकवचनं माम् इति अस्मत् शब्दस्य द्वितीयविभक्ति एकवचनं माम् अस्ति तस्य विशेषणद्वयमस्ति अप्रतिकारं माम् अशस्त्रं माम् तादृशं माम् अतः तत्र कर्मपदं द्वितीयविभक्तौ अस्ति खलु द्वितीयविभक्ति हा तत्र द्वितीयविभक्ति तादृशं माम् तत्र इदानीं तत्र शस्त्रपाणयः शस्त्रपाणयः इति तत्र विभक्तिकवचनं किम्
अत्र पाणयः इति तु बहुवचन प्रथमा
हा शस्त्रपाणी इति एकवचने पाणिन् इति हा यस्य हस्ते यस् तत्र पाणी इत्युक्ते हस्तः यस्य हस्ते शस्त्रः हस्ति अस्ति सः शस्त्रपाणी इदानीं हा सत्यं भगिनि हा तत्र गुणि हा गुणिवत् सत्यं भगिनि पाणि गुणि गुणिनौ गुणिनः पाणि पाणिनौ पाणिनः
नकारान्त
नकारान्त हा येषां पाणिषु शस्त्राणि सन्ति ते शस्त्रपाणयः इति भवति
इत्युक्ते कर्तृपदं
हा कर्तृपदं ते के इत्युक्ते धार्तृराष्ट्राः तत्र विसर्गस्य लोपः हा न न तत्र कौरवाः धार्तृराष्ट्राः इत्युक्ते कौरवाः
कौरवाः
कौरवाः धार्तृराष्ट्राः शस्त्र तत्र कौरवाः केवलं तत्र आगच्छन्ति इति न कीदृश कौरवाः अत्र अथवा धार्तृराष्ट्राः तत्र शस्त्रपाणयः ते तेषां हस्ते तत्र शस्त्राणि सन्ति अतः तत्र शस्त्रपाणयः धार्तृराष्ट्रः माम् अप्रतिकारम् अशस्त्रं मां रणे हन्युः यदि यदि ते हन्युः इत्युक्ते यदि ते मां
हन्युः यदि ते मां
यदि अहं वीरगतिं प्राप्नोमि तैः 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 कौरवैः यदि अहं वीरगतिं प्राप्नोमि तत् मे
तत् मे
मे इत्युक्ते तत्र मह्यं
मह्यं
चतुर्थी हा
तन्मे
क्षेमतरं
भवेत्
क्षेमतरं तदेव क्षेमतरं भवेत् यदि अहं यदि अहं तत्र तेषां तान् मारयामि तत् तद् मास्तु किन्तु यदि ते मां हन्युः तत् मे क्षेमतरं भवेत् भवेत् इति हा अतः तत्र भवेत् अपि हन्युः इदानीम् अस्मिन् श्लोके तत्र विधिलिङ्गकारस्य रूपद्वयम् अस्ति अत्र अस्मिन् श्लोके हन्युः बहुवचने भवेत् इति
एकवचने
एकवचने इति अस्तु तर्हि समीचीनमस्ति तत्र विधिलिङ्गकारस्य तत्र रूपाणि दृष्टवन्तः अभ्यासं कृतवन्तः अपि भगवद्गीतायाः श्लोकान् अपि तत्र श्लोकत्रयं पठितवन्तः इदानीं श्लोकद्वयमपि अस्ति अपि अग्रे अभ्यासः अपि सन्ति एतत् सर्वं सम्भावनार्थे अस्ति विधिलिङ्गकारस्य विध्यर्थे अपि अस्ति तदपि अग्रिमे पाठे पश्यामः तत्र अग्रिमवर्गे न अग्रिम पाठे पश्यामः अस्तु तर्हि तत्र रघुवीरानन्दस्वामी तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादश्च महोदय
धन्यवादः
धन्यवादः
धन्यवादः